Namaste. വാക്യകാരം പരരുചിം ഭാഷ്യകാരം പതഞ്ജലിം പാണിനിം സൂത്രകാരഞ്ച പ്രണതോസ്മി മുനിത്രയം. അസ്മിന് പാഠേ അസ്മാത് പാഠാത് ആരഭ്യ അഷ്ടാധ്യായ്യാഹ അവഗമനം ഇതി വിഷയേ കിഞ്ചിത് വക്ഷ്യാമി. സോ ഹൗ ടു അണ്ടർസ്റ്റാൻഡ് അഷ്ടാധ്യായി ഇതി വിഷയഃ. കഥം അഷ്ടാധ്യായ്യാമേവ അഷ്ടാധ്യായ്യാഹ അവഗമനാർത്ഥം മാർഗഃ നിർദ്ദിഷ്ടഃ വർത്തതെ, തസ്യ കിഞ്ചിത് പരിചയം കാരയിതും ഇച്ഛാമി. ഏന അഷ്ടാധ്യായ്യാഹ അവഗമനേ സൗലഭ്യം ഭവതി, സുലഭതയാ അഷ്ടാധ്യായീം അവഗന്തും ശക്നുമഃ. സോ പാണിനി ഹിംസെൽഫ് ഷോഡ് ദ പാത്ത് ഓഫ് അണ്ടർസ്റ്റാൻഡിംഗ് ദ അഷ്ടാധ്യായി. സോ I'm going to explain that so that we can understand Ashtadhyayi easily without referring much the commentaries. Prathamam, so these are the topics we are discussing in this section. Vibhaktim avalambya sutranam avagamanam. So how to understand sutra with vibhaktis. This Panini used few vibhaktis in this sutra, so how to understand those sutras with these vibhaktis. Sutra prakaraah, types of sutras. Visheshanam tadantasya, this we will know later on. Visheshanam tadantasya, sarvadesha and antyadesha, these are two concepts. And tit, kit, mit, I explained it vishe puramuktam. അത്ര ടിത് കിത് മിത് വിഷയേ വദാമി. എതേവ ആഗമാഃ ഇതി കഥ്യന്തെ, ആഗമ ആദേശ ഇതി പൂർവം ഐ എക്സ്പ്ലെയിൻ ദീസ് ടു ടേംസ് ആദേശ ആൻഡ് ആഗമ, ഹൗ ടു ഡിഫറൻഷിയേറ്റ് ആഗമ ആൻഡ് ആദേശ, തദ്വിഷയേ അത്ര വദാമി. ആൻഡ് അസിദ്ധ വ്യവസ്ഥ, ഏഷ അത്ര അഷ്ടാധ്യായാം വിദ്യമാന കാചിത് വ്യവസ്ഥ, തദ്വിഷയേ വിൽ ഓൾസോ എക്സ്പ്ലെയിൻ ദിസ് അസിദ്ധ വ്യവസ്ഥ, വാട്ട് ഇസ് ദിസ് ലെറ്റർ ഓൺ വിൽ നോ. ആൻഡ് വർണ്ണാനാം നിർദ്ദേശ, പാണിനിനാ വർണ്ണാനാം നിർദ്ദേശാർത്ഥം കഹ ക്രമഃ ഉപയുക്തഃ. തത്ര പ്രത്യാഹാര വിഷയ ഉക്തം, അന്യേപി വിഷയാ സന്തി തത്ര ജ്ഞാതവ്യാഃ. പാണിനിനാ വർണ്ണാനാം നിർദ്ദേശാർത്ഥം കശ്ചന ക്രമഃ സ്വീകൃതഃ അസ്തി, തദ്വിഷയേ വദിഷ്യാമി. സോ ദീസ് ആർ ദ ടോപിക്സ് വി ആർ ഡിസ്കസിംഗ് ഇൻ ദിസ് സെക്ഷൻ. പ്രഥമം സൂത്രം നാമ കിം? അഷ്ടാധ്യായ്യാം മയാ ഉക്തം, അഷ്ടാധ്യായ്യാം സൂത്രാണി വർത്തന്തേ, വിഷയാഃ സൂത്രരൂപേണ ഉപസ്ഥാപിതാഃ വർത്തന്തേ പാണിനിന. സോ ദെൻ വാട്ട് ഈസ് സൂത്ര? സൂത്രസ്യ ലക്ഷണം കിം? വാട്ട് ഇസ് ദ ഡെഫിനേഷൻ ഓഫ് സൂത്ര? സോ അത്ര ഏതേ അംശാഃ സൂത്രേ ഭവേയുഃ ഇതി ഉച്യതേ. അക്ഷരാണാം അൽപത, ബഹൂനി അക്ഷരാണി ന ഭവേയുഃ സൂത്രെ. അക്ഷരാണാം അൽപത ഇതി ഏകഃ ഗുണഃ. സോ ഫ്യൂ ലെറ്റേഴ്സ് ഹി ഷുഡ് നോട്ട് ദേ ഷുഡ് നോട്ട് ബി മെനി ലെറ്റേഴ്സ് ഇൻ എ സൂത്ര. സോ അക്ഷരാണാം അൽപത. സന്ദേഹരാഹിത്യം, സന്ദേഹസ്യ അവകാശഃ ന ഭവേത്, ആംബിഗ്വിറ്റി. സന്ദേഹസ്യ അവകാശഃ ന ഭവേത്, സന്ദേഹരാഹിത്യം. യദാ അൽപാക്ഷരാണി ഭവന്തി തദാ സന്ദേഹസ്യാപി അവകാശഃ അധികഃ. യദാ കേചന ഏവ അക്ഷരാണി ഭവന്തി തദാ സമ്യക്തയാ നിരൂപയിതും ന ശക്യതെ, സന്ദേഹസ്യ അവകാശഃ ഭവന്തി. കിന്തു അക്ഷരാണാം അൽപത ഭവേത്, സന്ദേഹരാഹിത്യം, సందేహస్య అవకాశో న భవేత్ ఇది ద్వితీయ గుణ. దెన్ సారభూతత్వం, సార ఇస్ ఎసెన్స్, సారభూతత్వం సారూపేణ వక్తవ్యం, యహ విషయ వక్తవ్యః తస్య సంగ్రహః అత్ర భవేత్, అది సారభూతత్వ. దెన్ వక్తవ్యానాం సర్వేషాం ఏకం నిమిషం. వక్తవ్యానాం సర్వేషాం విషయాణాం నిరూపణం, దెన్ అర్థరహితానాం అక్షరాణాం అభావః. సో సర్వేషాం, యాని అక్షరాణి వర్తంతే సూత్రే, సర్వేషాం అక్షరాణాం అర్థః భవేత్. దేర్ షుడ్ బి ఎ మీనింగ్ టు ఈచ్ లెటర్ విచ్ ఎవర్ ఈజ్ యూజ్డ్ ఇన్ ది సూత్ర. సో అర్థరహితానాం అక్షరాణాం అభావః. దెన్ దోషరహితత్వం, దోషాః న భవేయుః. ఏతే షట్ అంశాః యత్ర సంతి తత్ సూత్రం. సో దీస్ ఆర్ ద సిక్స్ క్వాలిటీస్ అ సూత్ర షుడ్ హ్యావ్. సో ఏతే అంశాః యత్ర భవంతి తత్ సూత్రం ఇతి కథ్యతే. తదేవ శ్లోకే ఉక్తం, అల్పాక్షరం అసందిగ్ధం సారవత్ విశ్వతోముఖం అస్తోభం అనవద్యంచ సూత్రం సూత్రవిదో విదుః ఇతి సూత్రస్య లక్షణం. ఏతాదృశం ఏవ సూత్రం భవతి. ఏతాదృశైః సూత్రైః అష్టాధ్యాయీ రచితా వర్తతే. సో అష్టాధ్యాయీ హ్యాస్ సచ్ సూత్రాస్. సో దీస్ ఆర్ ద క్వాలిటీస్ విచ్ యు ఫైండ్ ఇన్ అష్టాధ్యాయీ సూత్రస్. సో సచ్ అబౌట్ 4000 సచ్ సూత్రాస్ ఆర్ దేర్ ఇన్ అష్టాధ్యాయీ. ఇదానీ విభక్తిమవలంబ్య సూత్రాణాం అర్థః. We cannot. Can you hear me? I think someone messaged that we can't hear the audio. Okay. Okay, thanks. Because I received a message that we can't hear. Okay. Okay. So విభక్తిం అవలంబ్య సూత్రాణాం అవగమనం. దిస్ ఇస్ వెరీ ఇంపార్టెంట్, హౌ టు అండర్స్టాండ్ సూత్రస్ విత్ విభక్తి, బికాస్ దేర్ ఆర్ ఫ్యూ విభక్తిస్ విచ్ పాణిని యూజ్డ్ ఇన్ దీస్ సూత్రస్. అండ్ హీ డిఫైన్డ్ ద మీనింగ్ ఆఫ్ దోస్ విభక్తిస్ ఆల్సో. సో లోకే యస్మిన్ అర్థే ఏతాసాం విభక్తీనాం ప్రయోగః క్రియతే తస్మిన్నేవ అర్థే అష్టాధ్యాయీ సూత్రేషు విభక్తీనాం ప్రయోగః న క్రియతే. సప్తమ్యాః లోకే, సప్తమే విభక్తి, లోకే అన్యః అర్థః. ఘటే జలం అస్తి, ఫైసే ఘటే జలం అస్తి. దెన్ ఘటే ఇది సప్తమి. అత్ర సప్తమ్యాః అర్థః అన్యః, అధికరణ. సో there is water in a pot, so adhikarana, this is ashraya. So saptamyaha atra arthaha anya. But if you find saptami, seventh case in ashtadhyayi sutra, then the meaning is completely different. So it is not adhikarana. Adhikaranam iti arthaha saptamyaha ashtadhyayam vidyamaneshu sutreshu nasti. So meaning of saptami bhakti is different in Ashtadhyayi Sutra and is different in Loka Vyavahara. And same with Panchami Vibhakti, Prathama Vibhakti, and Tritiya Vibhakti. So he is using in a specific meaning. So Panini, tatra vishesha arthe etasam vibhaktinam prayogam karoti. Tatha cha punaha tasam vibhaktinam arthaha api Paninina ukta. There are few rules where he defined the meaning of those vibhaktis. So in which meaning they have to he used these vibhaktis is also defined in Ashtadhyayi Sutras itself. So knowing that is very important. Tasya avagamanam bahu prathanam. Kimartham idameva avalambya vrittayah likitah. I think you have seen Siddhanta Kaumudi and Kashika. There are many vrittis written on Ashtadhyayi Sutras. Sarvaha vrittayah idam avalambya eva likitah. So vibhakti avalambya sutranam artha katam kartavyah, and there are some other concepts. So depending on these concepts only, they wrote vrittis. So understanding this is very important to know the how they wrote vrittis and how to understand the Ashtadhyayi rules. Sutre etadrisha vibhakteha drishyante. So you will find shashti, prathama, saptami, and this is the one combination. So such combinations you will find. So shashti, prathama, saptami, panchami, shashti, prathama, fifth case, then sixth case, then prathama vibhakti, or panchami, saptami, prathama, this is another combination. Shashti, tritiya, prathama. So shashti, then tritiya, prathama. So such combinations you will find in sutra. So one ekam padam will be in sixth case, then prathama and saptami. So or panchami, shashti, prathama, panchami, saptami, prathama, shashti, tritiya, prathama. Etadrisha tatra sutreshu etadrisha padani drishyante. Etadrisha vibhakti yuktani padani drishyante. So how to understand these vibhaktis? So if you know the meaning of vibhakti, then you can easily understand the meaning of sutra. So if there is shashti, prathama and saptami in a sutra, if you know the meaning of shashti and prathama and saptami, then you can easily understand the meaning of that sutra with reference to these vibhaktis. Ataha etasam vibhaktinam kaha arthaha iti chintayamaha. Prathamam shashti vibhakti. So what is the meaning of shashti vibhakti? Kinchit udaharanam darshayami. Idam sandhehe udaharanam iti atra padadvayam asti iti punaha atra. Atra ikarasya sthane yakarah bhavati. Ikara is in this word, the E after takara. So this ikara will be replaced with yakara. Then you will get ityatra. Iti plus atra becomes ityatra. This is a sandhi. We will know this sandhi later on. Just I need this to explain the shashti vibhakti. Iti atra becomes ityatra. So E will be replaced with yakara. Ikarasya sthane atra yakara ha bhavat ataha ityatra iti rupam siddham. Annyat udaharanam stha iti kastana dhaturasti. Tasya sthane utra tishtha iti kastana adesho bhavati. Tishthati iti rupam jananti. Tatra actually the dhatu is tha, but it becomes tishthati. Because the tishtha replaces tha. इत्यस्य स्थाने तिष्ठ इति आदेशः तदा तिष्ठति इति रूपं सिद्ध्यति. अत्र य पुनः तिष्ठ एतौ द्वौ आदेशौ, य इत्यपि आदेशः, तिष्ठ इत्यपि आदेशः. अहं पूर्वम् आदेशस्य लक्षणम् उक्तवान्. वाट् इस् आदेशः यस्मिन् प्रीवियस्लि यः अन्यस्य स्थाने भवति सः आदेशः. अत्र यकारः इकारस्य स्थाने भवति, अतः यकारः आदेशः. तिष्ठ इति स्था इत्यस्य स्थाने भवति, अतः तिष्ठ इति आदेशः. सो दिस् इस् आदेशः बिकास् इट् इस् रिप्लेसिङ्ग् समथिङ्ग् एल्स्. सो य पुनः तिष्ठ एतौ आदेशौ, यतः एतौ अन्यस्य स्थाने भवन्ति. इ इत्यस्य स्थाने यकारः भवति, एवं स्था इत्यस्य स्थाने तिष्ठ इत्यादेशो भवति. यस्य स्थाने आदेशः भवति सः स्थानि इति कथ्यते. यस्य स्थाने आदेशः भवति सः स्थानि इति कथ्यते. सो विच् इस् रिप्लेस्ड्, इट् इस् काल्ड् स्थानि. अत्र इकारः स्थानि अस्मिन् उदाहरणे, अस्मिन् उदाहरणे स्था इति स्थानि. यस्य स्थाने आदेशः सः स्थानि. सो स्थानि एण्ड् आदेश, दिस् आर् द टू टर्म्स् विच् ऐ एम् यूसिङ्ग् हियर्. आदेश इस् नोन् एण्ड् ऐ एम् इन्ट्रोड्यूसिङ्ग् वन् मोर् वर्ड्, दट् इस् स्थानि. सो विच् इस् रिप्लेस्ड्, दट् इस् स्थानि. सो विच् इस् रिप्लेसिङ्ग्, दट् इस् आदेश. सो अत्र इकारः स्थानि, स्था इति स्थानि. यकारः आदेशः, तिष्ठ इति आदेशः. यस्य स्थाने आदेशः भवति तत् स्थानि. सो सूत्रेषु षष्ठ्या प्रायः स्थानि बोध्यते. सो इन् सिक्स्थ् केस् इन् द सूत्र मीन्स् स्थानि. सो सामान्यतः प्रायः सूत्रे यदि षष्ठीभक्तिरस्ति तर्हि षष्ठ्या स्थानि बोध्यते. उदाहरणार्थम् ऐ विल् शो एन् एक्साम्पल्. इको यण् इकः यण् अचि, दिस् इस् द सूत्र. देर् आर् त्री वर्ड्स् इन् दिस् सूत्र. इकः इस् इन् सिक्स्त् केस्. इक् बिकम्स् इकः. इक् इक् इस् प्रथमा विभक्ति एण्ड् इकः इस् सिक्स्त् केस्, षष्ठी विभक्ति एकवचन इस् इकः. एण्ड् यण् यण् इति प्रथमा विभक्तिः एण्ड् असि इति सप्तमी विभक्ति, इस् अ सेवेन्थ् केस्. अच् इस् प्रथमा विभक्ति एण्ड् असि इस् सेवेन्थ् केस्, सप्तमी विभक्ति एकवचनं. दिस् इस् द नम्बर् रूल् नम्बर् सिक्स् इन् षष्ठे अध्याये प्रथमपादे अस्ति सूत्रम्. इकः यण् अचि, देर् आर् त्री वर्ड्स् इन् दिस् सूत्र. इकः यण् अचि. सो इक् बिकम्स् इकः इन् सिक्स्त् केस्. So you can see the sixth case here, ikaha. So what is the meaning of this word ikaha? Ik, I think you know, ik is a pratyahara. Ikara adarabhya kakara paryantam. E, a, e, un. So from e, e, u, r, luk. So from e to k means e, u, r, luk. Ete chatvaraha varanaha. This is pratyahara. Ik is a pratyahara. And ikaha is sixth case. And so what is the meaning of ikaha? Ikaha sthane. Because sixth case means sthani. So the meaning of ikaha is ikaha sthane. In the place of ikaha. Ikaha sthane. Shashtyaha sthane. Sthanam artha. The meaning of sixth case is sthana. So the meaning of the word ikaha is ikaha sthane, in the place of ikaha iti arthaha. So sarvatra yatra yatra shashti vibhakti rasti sarvatra api sthane iti vaktavyam. So here it is ik, therefore ikaha sthane. If there is yanaha, then yanaha sthane. Evam yatra shashtiye vaktirasti, tatra prayaha sthane iti arthaha bhavati. Yeah, there is a question. Sutreshu vibhaktinam kaha arthaha iti paninina kutra uktam keshachit sutreshu. Yeah, so there are some rules called paribhashas in Ashtadhyayi. Paribhasha sutrani, there are six types of sutras that I am going to explain. So some sutras are called paribhasha sutras, that means meta rules, rule about rule. So, Paribhasha Sutreshu, you will find these definitions, you will find in Paribhasha Sutras. These are called Paribhasha Sutras. And there he defined the meaning of Shasti Bhakti, Saptami Bhakti, and Panchami Bhakti, everything. So, those rules are called Paribhasha Sutras in Ashtadhyayi. So, that there are few Paribhasha Sutras in Ashtadhyayi. They are in, mostly they are in Prathama Adhyaya of Ashtadhyayi. Now, Prathama Bhakti. So, I explain the meaning of Shashti Bhakti. I will show more examples later on after explaining Shashti, Prathama and Saptami. Or I can show some examples. Okay. పూర్వం ఇదం చిత్రం దర్శితం మయా ఇతి అత్ర అస్మిన్ ఉదాహరణే ఇన్ దిస్ ఎగ్జాంపుల్ యకారః ఆదేశః తిష్ఠ ఇతి ఆదేశః ఇకారః స్థాని స్థా ఇతి స్థాని ఇత్యుక్తం. సో షష్ఠీ విభక్తి, షష్ఠీ విభక్త్యా స్థాని బోధ్యతే ఇత్యుక్తం. షష్ఠీ విభక్త్యా స్థాని బోధ్యతే. ప్రథమా విభక్త్యా కిం బోధ్యతే? ప్రథమా విభక్త్యా ఆదేశ బోధ్యతే. ఆదేశ సమ్ టైమ్స్ ఆగమ, బోత్ ఆదేశ అండ్ ఆగమ విల్ బీన్ ప్రథమా విభక్తి. అత ప్రథమా విభక్త్యా ఆదేశ బోధ్యతే ఆర్ ఆగమ వా సూత్రేషు ప్రథమయా నిర్దిష్ట ఆదేశ ఆగమ వా భవతి. సో జనరలీ యుల్ ఫైండ్ ఆదేశ అండ్ ఆగమ ఇన్ ప్రథమా విభక్తి. In the same example, ikaha yan achi. So the meaning of ikaha is ikaha sthane, because the meaning of shashti bhakti is sthana. So ikaha sthane, in the place of ik. Then yan is in prathama bhakti. So yan is adesha here. So ikaha sthane yan bhavati. So yan in the place of ik, yen, so yen replaces the ik. Yen adeshaha yen bhavati, ikaha sthane yen bhavati. So yen replaces ik. So therefore ikaha sthane, in the place of ik, yen goes. So shashtyaha sthane ityarthaha iti prathama vibhakti rasti sutre yadi kinchit padam prathama vibhakto vartate. తరిహి తత్ ఈదర్ ఇట్ విల్ బి ఆదేశ ఆర్ ఆగమ. హౌ టు డిఫరెన్షియేట్ ఆదేశ అండ్ ఆగమ, దట్ ఐ విల్ ఎక్స్ప్లెయిన్ లేటర్ ఆన్. సో ఇన్ ద సేమ్ సెక్షన్ వెన్ ఐ ఎక్స్ప్లెయిన్ టిత్ కిత్ మిత్, దెన్ ఐ విల్ ఎక్స్ప్లెయిన్ దిస్ హౌ టు డిఫరెన్షియేట్ ఆదేశ అండ్ ఆగమ. బట్ సో బోత్ ఆదేశ అండ్ ఆగమ యు ఫైండ్ ఇన్ ప్రథమ విభక్తి ఓన్లీ. దెన్ there is saptami bhakti in this sutra achi. So what is the meaning of saptami? First, yeah, ikaha sthane yan bhavati iti arthah. Then saptami bhakti sutreshu saptamya nirdishtam yat tasmin pare purvasya karyam bhavati. So sutreshu saptamya nirdishtam yat tasmin pare, when that follows, tasmin pare, purvasya karyam bhavati, the previous one will be replaced. When the word which is in saptami vibhakti follows, then the previous one will be replaced. So I will show an example, then it will be clear. In the same sutra, iko yanachi, see, ikaha is shashti vibhakti, yan is prathama vibhakti, and ati is saptami vibhakti. So the meaning of this sutra will be ikaha sthane yan bhavati ati pare, means when at follows. When at follows ik, then it will be replaced with yan. Ikaha sthane yan bhavati ati pare, when at follows ik, then ik will be replaced with yan. Iti sutrasya arthaha. So ikaha sthane yan bhavati ati pare, param nama agre, so purastat bhavet. So when ach purastat bhavati, kasya agre, ikaha agre, yada ikaha agre ach bhavati, tata ikaha sthane yan varnaha bhavanti. Danim, yeah. So the meaning of this sutra is ikaha sthane yan bhavati ati pare. Ik means e, u, r and l, these four letters, e, u, r, l, is ik is a pratyahara. So ik means these four letters. Ikaha sthane, in the place of e, u, r, l, ikaha sthane yavaral ete varanaha bhavanti. Yan means these four letters. Atah yan varanaha bhavanti ati pare, ach means all swara vowels, swaraha ati pare. So when ach follows, then these four letters e u r l will be replaced with yavarala. So e will be replaced with ya, u will be replaced with va, and r will be replaced with ra, l will be replaced with la. This is the meaning of this sutra. See, I will show an example. In the same example, iti atra. So there are two words, iti punaha atra. Atra antimam antimaha varanaha asti, this last letter is e. So there are two ikaras in this word. The first letter is also e, and the last letter is also e. After ta, tu plus e, t. So last letter is e in this word, iti, and atra. So akara follows this ikara. Akara follows ikara. So ikaha sthane, in the place of ik, where is ik? This ikara, the last ikara, which is after ta, that ikara. Ikaha sthane yan bhavati, this ik letter will be replaced with yan if it is followed by an ach. This akara is ach. Akara is ach letter, and it follows ikara. Therefore ikarasya sthane yan bhavati. So here ikara is replaced with yakara. Therefore, we get the form ityatra. So, ikaha sthane yan bhavati ati pare. So, it should be immediately after ik, which is in saptami vibhakti. It should be immediately after the word which is in sixth case. Shashti vibhakti antam yadasti tasmat sakshat agre eva saptami vibhaktya nirdishtam bhavet. Shashti vibhaktya nirdishtam yat tasmat sakshat agre eva saptamya nirdishtam bhavet tada eva sutrasya pravrutti. So ikaha sthane yan bhavati achi pare iti atra sutrasya arthah tasya anvayah evam bhavati iti ekam udaharanam. So this is how vibhaktim avalambya, just seeing these vibhaktis, we can understand the meaning of Ashtadhyayi Sutras. Atra prashna santi. आदेश आगमयोः कृते प्रथमा भवेतामिति नियमः परिभाषा वा अस्ति वा. सो देयर इज फॉर दिस एक्चुअली देयर इज नो सूत्र. आदेश शुड बी इन प्रथमा एंड आगम शुड बी इन प्रथमा. देयर इज नो सच सूत्र इन अष्टाध्यायी. बट ही डिफाइंड सप्तमी षष्ठी एंड एवरीथिंग. सो जनरली विच इज इन प्रथमा दट विल बी आदेश एंड आगम. ఈ సంప్రసారణం ఈ సేమ్ యాస్ దిస్. సంప్రసారణం యాక్చువల్లీ ఇస్ డిఫరెంట్, మీన్స్ ఇట్స్ యాక్చువల్లీ రివర్స్ ఆఫ్ దిస్. సో ఇన్ సంప్రసారణ ఈ రిప్లేసెస్ య. హియర్ య రిప్లేసింగ్ ఈ. ఇకారస్య స్థానే యకార. ఇన్ సంప్రసారణ యకారస్య స్థానే ఇకార భవతి. ఇట్స్ యాక్చువల్లీ రివర్స్. అచి పరే అయం సతి సప్తమ్యా ప్రయోగ వా. సతి సప్తమీ సప్తమ్యా అర్థ అత్ర పాణినినా నిరూపిత. దేర్ ఇస్ అ సూత్ర ఫర్ దిస్. యాక్చువల్లీ తస్మిన్ నిర్దిష్టే పూర్వస్య ఇస్ హి డిఫైన్స్ ద మీనింగ్. So, of Saptami Bhakti. So, I have to check whether you can consider this as Saptami, Sari Saptami or not. I will explain, I will answer this in the Google group. Okay. Dvitiya Tritiya Vibhakti Naam Sutreshu Upayogaha Nastiva. So there are few words with the Dvitiya Vibhakti also. I think only very less. Only in Samya Sutras you will find Dvitiya Vibhakti. Normally you won't find in Viti. Viti means operation rules. So you won't find the Dvitiya usually. There are few words with Tritiya Vibhakti that I will explain the meaning of Tritiya Vibhakti also. So generally you will find Chaturthi, not even Chaturthi. Chaturthi also you will find only in 2-3 places. So the common vibhakti is saptami, shashti, prathama and panchami. So these four are very common in Ashtadhyayi Sutras. So panchami vibhakti, saptami vibhakti, shashti vibhakti, prathama vibhakti. Annesham prayogaha alpaha asti. Okay. Idanim tra ha kanichana udaharanani darshayami. So some more examples. Etaha ayavayavaha ati. This is another rule. See, in this word you can find sixth case and prathama and saptami. Eight and Etaha is the Shashti Vibhakti. Prathama Ekavachanam. Ayavayavaha. I av I av. Ayavayavaha is in Prathama Vibhakti. And Ati is Saptami Vibhakti. So kaha arthaha asya sutrasya Etaha sthane ayavayavaha bhavanti. Because it is, there are many. I am using Bahuvachana. Ayavayavaha bhavanti. అసి పరే ఏతః స్థానే అయవాయావః భవంతి అసి పరే ఇది సూత్రస్య అర్థః. సో డోంట్ వరీ అబౌట్ ద ఎగ్జాంపుల్స్. ఎగ్జాంపుల్స్ వి విల్ గెట్ లేటర్ ఆన్. బట్ జస్ట్ ట్రై టు అండర్స్టాండ్ ద సూత్ర. జస్ట్ సీయింగ్ ద విభక్తిస్ హౌ టు గెట్ ద మీనింగ్. ఓన్లీ ఐఎమ్ డీలింగ్ విత్ దిస్. So don't worry about how, what is the application of this rule, where we are applying. Don't worry about that in this level. I'm going to explain it later on. Just try to understand the how to get the meaning from a sutra. See, this is another rule. Choho, kuhu, chadi. So, choho is as chu, and the sixth case of chu is choho. Like guruhu becomes guroho, and chuhu becomes choho. It's shashti bhakti. Kuhu is prathama, and jali is saptami bhakti. What is chu? Chu means chavarga. That I will explain again later on. But chu means chavarga. Chu ityasya chavargaha ityartha. Cha cha ja cha nya ityartha. Chu ityasya. Ayam kasana panine hai krama. This is how panini uses. These are the usages of panini. So chu means chavarga. So instead of chavarga, he is using chu. So ku means kavarga. Ku ityasya kavargaha ityartha. Ka kha ga kha nga ityartha. Ku ityasya. Choho sthane kuhu bhavati jali pare iti sutrasya arthah. Choho sthane kuhu bhavati jali pare. See, shathoho kaha. See, this is another sutra. Shathoho is dvivachana, sixth case, but dvivachana sh and tha, there are two letters, therefore this dvivachana. Shathoho shashti bhakti. Kaha is prathama and si is saptami. So the meaning of sutra is shathoho sthane kaha bhavati si pare. Si means su. Su is prathama, si is saptami. Su means sakara, sa letter. Sa. Saptami bhakti hi si. Idanim atra kanichana sutrani santi, this is for abhyasa, and anyone can say the meaning of this sutra. So instead of writing, I think you can unmute yourself and say the sutra. Please raise your hands and I will call one by one. Yes. I can't, means it's difficult to say who raised first, because I can see from in alphabetic order. So, in the same order I am calling. So, Adarshaji. So, kaha arthaha asya sutrasya? Unmute karomi. Yeah, I unmuted. Adarshaji. Yeah. Indira ji. Indira Krishnamurti.
Echaha iti A O I O. Tasya sthane A sthane I O sthane A.
Kevalam tatra idam bhavatu yatah sarvatra klesha bhavet. So just echaha sthane ite vadatu. केवलम् एतानि पदानि उपयुज्य स्थाने भवन्ति अण्ड् परे एतः स्थाने अयवायावः भवन्ति अचि परे यतः सर्वत्र पदानां विवरणं कर्तुं कष्टं भवेत् अग्रे इतोपि सर्वे विषयाः न उक्ताः सो एतावदेव सत्यहारम् ओके उत्तमम् एतः स्थाने अयवायावः भवन्ति अचि परे षठोः कः सि हा सविताजी
चोः कुः झलि
अत्र षडोः कः सि एतस्यैव वदतु
षडोः स्थाने
हा अतः प्रथमा विभक्तिः तो कः भवति हरि ओम् षडोः स्थाने कः भवति सि इति सप्तमी विभक्तिः सो किं वक्तव्यम् सि परे षडोः स्थाने कः भवति सि परे षडोः स्थाने कः भवति सि परे इत्यर्थः बिकास् सि सप्तमी सि परे षडोः षष्ठी विभक्तिः अतः षडोः स्थाने षडोः स्थाने कः भवति सि परे षठोः इस् द्विवचन षठ षठोः जलां जस् झसि अस्य सूत्रस्य कः अर्थः रामप्रसाद् जी
अत्र झलां स्थाने जस् भवति झसि परे
हा सम्यक् झलां स्थाने जस् भवति झसि परे उत्तमं
झलां जस् झसि इति
हा सम्यक् उत्तमं झलां चर् खरि बालसुब्रह्मण्यं जी कः अर्थः
झलां स्थाने चर् भवति खरि परे
सम्यक् जलां स्थाने चर् भवति खरि परे जलां चर् अवसाने देर् इस् अत्र वन् मोर् वर्ड् यु केन् सी वा इत्येकं पदमस्ति वा मीन्स् इन् अष्टाध्यायी यु विल् फैण्ड् वा एण्ड् अन्यतरस्यां विभाषा सच् वर्ड्स् यु विल् फैण्ड् सो वा मीन्स् विकल्प इस् आप्शनल् so this rule is applicable optionally va itanena vikalpena ityarthah va ityasya vikalpah ityarthah means this rule is applicable optionally ityarthah iti sutre kutrapi va ityasti tarhi vikalpah iti sutrasya arthah so jalam char avasane ityasti yes jay kumar ji sutrasya kah arthah
char विकल्पेन भवति अवसाने परे
उत्तमं जलां स्थाने चर् भवति अवसाने परे सो वा विकल्पेन सो चर् विकल्पेन भवति सम्यगेव करेक्ट् सो जलां स्थाने चर् भवति अवसाने परे विकल्पेन अनुस्वारस्य ययि परसवर्णः शिवराम कुलकर्णी जी
अनुस्वारस्य स्थाने यय वर्णः भवति अनुस्वारस्य स्थाने परसवर्णः भवति यय वर्णे परे
उत्तमम् अनुस्वारस्य स्थाने परसवर्णः भवति ययि परे ययि वर्णे परे सम्यक् तोः लि परसवर्णः इति सूत्रं तोः नाम सवर्गस्य इत्यर्थः तोः लि परसवर्णः आदर्शजी कः अर्थः सूत्रस्य
तोः स्थाने
डिस्टर्बेन्स् अधिकमस्ति तोः अन्यः कोऽपि वदतु. सदाशिवं जी. सदाशिवं जी, कार्थः सूत्रस्य. न श्रूयते. अन्यः कः अस्ति? राव् मङ्गीपुडि महोदय, वक्तुं शक्नोति वा? यस्, राव् मङ्गीपुडि जि. सो सूत्रस्य अर्थं? नो, ओके, न श्रूयते. अन्यः कः? यस्, रघुवर्मा बसवराजु.
चोः स्थाने लिपरे परसवर्णः भवति.
हा, उत्तमं. तोः स्थाने लीप्, तोः नाम तवर्गस्य, सो तोः स्थाने लीपरे नाम लकारे परे परसवर्णः भवति. उत्तमम्. रः रि लोपः इति सूत्रं. रः रि लोपः. वासुदेवन् जी. यस्, वासुदेवन् राजगोपालन् जी. अन्म्यूट् न भवति. या शारदा गोपालन् जी, वक्तुं शक्नोति वा? सम्यक्. रः स्थाने लोपः भवति रि परे इति अर्थः. उत्तमम्. रः करवसानयोः विसर्जनीयः इति सूत्रं. जानकी राजारामन् जी.
नमस्ते.
स्थाने
विसर्जनीयः भवति कर अवसानयोः परे.
सत्यम्. उत्तमं. रः स्थाने विसर्जनीयः भवति करवसानयोः, द्विवचनमस्ति, करवसानयोः परयोः. सो रः स्थाने विसर्जनीयः भवति करवसानयोः परयोः. सम्यक्. विसर्जनीयस्य सः खरि. सौम्या रामन् जी. अन्म्यूट् कृत्वा वदन्तु. सौम्या रामन् जी. न श्रूयते. अन्म्यूट् न अभवत्. कमलराजन् जी. कमलराजन् वि.
वदामि वा?
वदन्तु.
विसर्जनीयस्य स्थाने सः भवति करीपरे.
सम्यक्. विसर्जनीयस्य स्थाने सः भवति. सः मीन्स् सकार. विसर्जनीयस्य स्थाने सः भवति करीपरे. उत्तमम्. विसर्जनीयस्य सः शरि वा इत्यपि पदमस्ति. शारदाम्बाल् जि. शारदाम्बाल् सि वि. वक्तुं शक्नोति वा? श्रूयते? ओके, अन्यः वि एन् मीनाक्षी अन्म्यूट् कृत्वा वदन्तु. वि एन् मीनाक्षी नास्ति. ओके, जी ओके, अन्यः कः अस्ति? जी वेङ्कटेश्वरन् जी, जी वेङ्कटेश्वरन् अय्यप्पन् एस् नास्ति. सुलोचना पी के एस् न श्रूयते कस्यापि. उत्तमं, विसर्जनीयस्य स्थाने सः भवति सरि परे विकल्पेन इत्यर्थः. हः ढः जलि, हः ढः जलि. कः पीयम् इति अस्ति, कस्य कः न जानामि, तत्र पीयम् इति दर्शयति, वक्तुं शक्नोति वा?
कः स्थाने ढः भवति जलि परे.
अस्तु, उत्तमं. हः स्थाने, हः नाम हकार, हकारस्य स्थाने ढः, ढः नाम ढकारः, हः स्थाने ढः भवति सरिपरे. सो एवं विभक्तिं दृष्ट्वा सूत्राणाम् अर्थः निर्णेतुं शक्यते. सो ऐम् नाट् गोयिङ्ग् फार् अप्लिकेशन् पार्ट् आफ् दीस् सूत्र, देट् वि विल् नो लेटर् आन्. सो मोस्ट् आफ् दीस् रूल्स् आर् रिलेटेड् वित् सन्धि, सो विल् स्टडी दीस् रूल्स् इन् सन्धिपकरण. But this is how to understand Ashtadhyayi Sutras, just seeing Vibhakti. Evam Vibhaktim Drishtva Sutranam Arthasya Niranayah Karaniyah. So, Bahunam Sutranam Artham Anena Kramena Jnatum Shaknumaha. Kevalam Datra Samanyataha Etaha Vibhaktayah Adhikyam Drishyante, Shashti, Saptami, Prathama. Etaha Vibhaktayah Datra Adhikyam Drishyante, Panchamiya Pyasti, Panchamiyah Artham Vadishyami. अत्र षष्ठीविषये मया उक्तं, षष्ट्याः स्थाने इत्यर्थः इति. प्रश्नाः केऽपि सन्ति वा ततः परं, बिफोर् गोयिङ्ग् टु दिस् टापिक्, इफ् यदि प्रश्नाः सन्ति प्रष्टुं शक्नुवन्ति. विसर्जनीय इत्युक्ते किम् इति प्रश्नः निर्ति क्वश्चन्, वाट् इस् विसर्जनीय? विसर्जनीय मीन्स् विसर्ग. विसर्जनीय इति पदं यु विल् फैण्ड् इन् सूत्र. विसर्जनीय मीन्स् विसर्ग, द टु डाट्स् विच् यु फैण्ड् इन् संस्कृत स्क्रिप्ट्. विकल्पेन इत्युक्ते किम् इति प्रश्नः अस्ति. Vikalpa is, as I mentioned, is optional. So, means that the tool is applicable optionally. Ityartha. Vikalpa ha nama. Bhavati na bhavati is vikalpa. Bhavati na bhavati. Ityukte vikalpa ha. So, optionally it is applicable. Ityartha. So, we will know actually when we study sandhi, then we know the application. So, how the vikalpa works, that we will know in sandhi prakarana. So in this level now it is enough. Vikalpa is optional, so the rule is applicable, it operates optionally. Avasane pare, avasana as in sandhi samnya prakarana we studied the meaning of avasana. Avasana means there is, when there is no letter, then it's called avasana. So avasane pare. Yada avasanam pare asti means when there is no letter after a word, there is avasana. Avasane pare karyam bhavati. Asto. So atra shakhyah. Itopi, there are only few minutes, so it's difficult to complete this, but I will just give an introduction that then we can study in the next week. Shastiyah sthane ityarthah iti maya uktam. If you find shasti bhakti in a sutra, then it means sthana. So we saw many examples, but shastiyah anyah arthah api asti. That is sambandha. Shastiyah sambandha ityarthah api asti. So there are two meanings, sambandha and sthana. Sthana vishaye maya uktam. So I explained this meaning, but there is one more meaning to shasti, that is sambandha. So kaha sambandho nama kaha? So kim katra sambandha arthah katra loke prasiddha asti. Balakasya haste lekhani asti. Balakasya haste lekhani asti iti kinchit vakyam. Balakasya is shasti bhakti. Balakasya haste. So what is the connection between these two words, balakasya and haste? There is a avayava avayavi bhava connection. So balaka is avayavi. Avayava is a part. Here you can say is limb, but avayava means part. So who has those parts is avayavi. The thing which has many parts, it is avayavi. Avayava and avayavi. So avayavi is whole and avayava is part. So the connection between balaka and hasta. So what is the relation between balakasya haste? What is the relation? Hasta is avayava and balaka is avayavi. Hasta. Hand. Hasta is avayava and balaka, a boy. Balaka is avayavi. So balakasya haste. Anayoha madhye kasana sammandha atra shashti bhakti rasti balakasya iti. Shashtya kasana sammandha jnayate. Balakasya haste anayoha madhye kasana sammandha asti iti shashtya jnayate. Kaha sammandha asti? Avayava avayavi bhava sammandha vartate. Hastaha avayavaha and balaka avayavi ayam sammandha tatra shashtya jnayate, shashti bhaktya jnayate. So avayava avayavi atra avayavi balakaha and hastaha avayavaha is a part of balaka. He is whole and hasta is part. So part and whole relationship. Ayam sambandha atra balakasya iti shashtya jnayate. Iyam shashti eva sambandhe shashti iti kathyate. This shashti is called sambandha shashti. Yaya shashtya sambandha jnayate sa shashti sambandha shashti iti kathyate. Asmin udaharane balakasya iti atra shashti bhakti asti. Anaya shashtya avayava avayavi bhava sambandha jnayate. Ataha iyam shashti sambandha shashti asti. Sambandhaya shashti paninehe sutreshu api vartate. In Panini's sutras also you find shashti in sambandha. So in sambandhartha also shashti bhakti is there in Panini's sutras. So previously I mentioned about sthana. Shashtyaha sthane ityarthaha ityuktam. Kintu kvachit shashtyaha in some places shashtyaha sambandhartha api asti. And when there is no sambandhartha, then only we have to take sthanartha. Yadi shashtyaha sambandhartha nasti, tariheva shashtyaha sthanartha svikaraniyaha iti paninehe niyamaha. So if there is no sambandhartha to a shashti, vipakti, then only we should take sthanartha. This is what Panini Sutra says. So how to know whether it is in sambandha or whether it is in sthanartha? So this is actually simple. So because to say a sambandha, yada sambandha iti vadamaha, then there should be two things. In this example, see, balakasya haste. So hasta is avayava and balaka is avayavi. So there is a word to denote whole and there is another word to denote avayava. So therefore we can say this is avayava avayavibhava sambandha. So in the same way, if it is avayava avayavibhava sambandha, then there should be such words in sutra to say this is in sambandhartha. So I will show an example next class. So and if there is no this sambandha, if the shashti is not in sambandhartha, then only we have to take sthanartha. So, and I will show examples in next class. Then you will understand clearly because now time is over. So agrima paate asya punaha viranam karomi asya udaharanam darshayami tada asya sambandhartasya sthanartasya bhedah jnayate. Again, I can take class next Friday. So again I am traveling, so I can't take on next Wednesday. So next class will be on Friday. So astu tarihi samapayamah. So agrima paatha, so next class will be on Friday, not on Wednesday. Astu. Friday US time. I mean, we will get notification, so we will know. So they will send notification of the class. So we will know. Same time, but on Friday. Samapayamaha. Vakyakaram, Vararuchim, Bhashyakaram, Patanjalim, Paninim, Sutrakarancha, Pranatosmi, Munitrayam. अस्तु धन्यवादः सर्वेभ्यः पुनर्मिलामः यदि प्रश्नाः किमपि सन्ति चेत् प्लीज ऐड क्वेश्चन्स इन गूगल ग्रुप आई गॉट मेनी सजेशंस आल्सो सो यू कैन ऐड एनीथिंग सजेशंस और क्वेश्चन्स इन द गूगल ग्रुप